अविष्पान्तमजलम् सर्वेति विश्वस्याहूतम् जुष्टमग्नौ तस्य धर्माणि भुवनाय देवधर्मानेकम् स्वधया पप्रथन्त येर्णम् भुवनम् तमसापगूढमाविश्वरभवज्जाते अग्नौ देवा पृथिवीद्यौ हृदा पौराणजन्नोषधीः सख्ये अस्य देवेभिर्न्वेषितो यज्ञयेभिरग्निम् स्तोषाञ्जरम् बृहन्तम् यो भानुना पृथिवीञ्जामुदे मामाः तदा नरोदासी अन्तरिक्षम् यो होदासीत् प्रथमो देवजष्टोऽयम् समाञ्जन्नाद्येनावृणानाः त्रीत्वरम् स्थाजगद्यच्छात्रमग्निरागृणोज्जातवेदाः यज्जातवेदो भुवनस्य मूर्धन्न तिष्ठो अग्ने सवलोचनेन तन्त्वा हेम मतिभिर्गेर्भिरुक्तैः स यज्ञयो अभवो रोदसिप्राः मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् मायामूर्यज्ञानामेतामपोजत्तो निश्चरादिप्रजानन् निषेण्योजो मायिना समिद्धो रोचनदिवियो निर्विभावाः तस्मिन्नग्नौ सूक्तपाकेन देवाहविर्विश्वाजो हवस्तनूपाः सूक्तभागम् प्राथमाविदग्निमादिग्धविराजनयन्त देवाः स येषाम् यज्ञोऽभवस्तनोपास्तम् चौर्वेधतम् पृथिवीतमापाः तम् देवासो जनयन्ताग्निम् यस्मिन्नाजोहवर्भुवानानि विश्वाः सो अद्युषा पृथिवीञ्जामुदे मामृजूयमानो अतपन्महित्वा सोमे नहि दिवि देवासो अग्निमजीजनम् छक्तिभिरोदसि प्राम् तमोहगृण्वन्धा भुवेकम् सरोषधीः पतति विश्वरूपाः यदेदेरमदधुर्यज्ञासो दिवि देवाः सूर्यमादिधेयम् यदा च विष्णो मिथुनामभूतामादित्रापश्यन् भुवनानि विश्वाः तिष्ठस्माग्निम् भुवनाय देवा वै स्वानरम् केतुमह्नामकृण्डन् आयस्तदा नो नसो विभातीरमो पूर्णोदितमो अर्चिषायन् वै स्वानरम् कवयो यज्ञयासोऽग्निम् देवा जनयन्न दुर्यम् नक्षत्रम् रत्रममीनश्च ऋष्यक्षस्याध्यक्षम् दभिषम् बृहन्तम् ैश्वानरम् विश्वादीजिवाम् सम्मन्त्रैरग्निम् कविमच्छावदामः यो मा हिम्ना परिबभूगोर्वीरास्तादुदेवः परस्ताद् मे श्रुति अशृणवम् विदेनामहम् देवानामुदमत्यानाम् ताभ्यामिदम् विश्वमे दत्समे दियदम् तरापितरम् मातरम् च द्वेषमीचि बिभृतश्चरम् तम् शीर्षदो जातम् मनसा विमृष्टम् स प्रत्यम् विश्वाभुवरालितस्थापप्रायच्छम् तरनिर्भ्राजमानः यत्रापदे ते अवरः परश्च यज्ञन्योः कतरो नो विवेद आसे गुरित्स धमादम् सखा यो नक्षन्दयज्ञम् क इदम् विवोचत् कत्यग्नयः कति सूर्या सकत्युषा सकत्विस्विदापाः नोपस्मिजम् वप्पितरो वदामि पृच्छामि वः कवयो विद्मनेकम् यावन्मात्रमुणतो न प्रतीकम् सुपर्णो गोपसते मातरि श्वः यज्ञमायन् ब्राह्मणोः दुरवरो निशीलन्